रत्नै कल्पितमासनं हिमजले स्नानं च दिव्याम्बरम् नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् जातीजम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देवदयानिधे पशुपते कृत्कल्पितं गृह्यताम् सौवर्णेन वरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भापलं पानकं शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम् वीणाभेरि मृदङ्गकाहलकला गीतं च नृत्यं तथा साष्टाङ्गं प्रणति स्तुतिर्बहुविधा एतत् समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो आत्मा त्वं गिरिजामति सहचरा प्राणाशरीरं गृहं पूजाते विषयो बभोगरचना निद्रा समाधिस्थितिः सञ्चार पदयो प्रदक्षिण विधि स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तत् तदखिलं शम्भो तवाराधनम् करचरण कृतं यजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाम्भे श्री महादेव शम्भो जय जय करुणाभे श्री महादेव शम्भो श्री महादेव शम्भो